अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी ह्यः ईरानस्य राष्ट्रपतिना डॉक्टर मसूद पेजेश्कियन इत्यनेन सह दूरभाष माध्यमेन सम्भाषणम् अकरोत्। सम्भाषणावधौ राष्ट्रपतिना पेजेश्कियन इत्यनेन पश्चिमेशियायाः घटनाक्रमस्य विषये प्रोदीरितम्। प्रधानमन्त्रिणा उभयोर्देशयोर्मध्ये सञ्जातं सहमतिं स्वागतीकृतम्। सहैव तेन भारतस्य निरन्तरनीतिः पुनः प्रतिपादिता यत् सर्वेषां समह्वानानां समाधानं केवलं संवादेन सुष्ठुनीत्या एव भवितुमर्हति। विकसित भारत रोजगार एवं आजीविका मिशन ग्रामीण वीबीजी रामजी इत्याख्यः अधिनियमः अद्यारभ्य अर्थात् जुलाई मासस्य एकदिनांकात् कृत्स्नेहि ग्रामीण भारते प्रवृत्तो भविष्यति। ग्रामीण विकास मन्त्रालयेन प्रतिपादितं यत् अयम् अधिनियमः प्रत्येकं वित्तीय वर्षे पञ्चविंशत्युत्तरैकशत दिनानां सवेतन वृत्तेः प्रतिभूतिं प्रदाय ग्रामीण भारतस्य सशक्तीकरणं विधास्यति। देशे अस्य नूतन तन्त्रस्य क्रियान्वयनार्थम् अस्य वित्तीय वर्षस्य कृते 92,65,000 कोटि रूप्यकाणां प्रावधानं विहितम्। उपक्रमस्यास्य प्रवर्तने केन्द्रीय ग्रामीण विकास मन्त्री शिवराज सिंह चौहानः अवोचत् यत् कोऽपि अर्हः ग्रामीण श्रमिकः एकमपि दिनं कार्यं विना न भवेत्। श्री चौहानेन स्पष्टीकृतं यत् सर्वकारेण राज्यैः केन्द्रशासित प्रदेशैः च साकं दृढ समन्वयं विधाय अस्याः नूतन व्यवस्थायाः निर्बाध संचालनाय सर्वाः प्रशासकीय वित्तीय च सज्जता विहिता। अवधेयास्पदं वर्तते यत् पञ्चविंशत्युत्तरैकशत दिनानां वर्धिता अयं वृत्त्यवसरः ग्रामीण आजीविकां सुदृढां करिष्यति, चिरस्थायि सामुदायिक सम्पत्तीनां निर्माणं च विधास्यति। अनेन सहैव विकसित भारतस्य संकल्पं तीव्रगत्या प्रवर्तयिष्यते। जापान देशस्य प्रधानमन्त्री साने तकाइची अद्य सायं त्रिदिवसीय भारत यात्रा प्रसंगे नवदेहलीं प्राप्स्यति। इयं तस्याः प्रथमा आधिकारिकी भारत यात्रा वर्तते। सा श्वः प्रधानमन्त्रिणा नरेन्द्र मोदिना सह षोडशे भारत जापान वार्षिक शिखर सम्मेलने भागं ग्रहीष्यति। इदं शिखर सम्मेलनम् उभयोर्देशयोः कृते द्विपक्षीय सहयोगस्य समग्र क्षेत्रस्य समीक्षां सुदृढीकरणं च विधातुं सहैव पारस्परिक हितस्य क्षेत्रीय वैश्विक विषयेषु विचाराणां विनिमयीकरणं कर्तुमेकं प्रकृष्टम् अवसरं प्रदास्यति। उत्तराखण्ड राज्यस्य मदरसा शिक्षा प्रणाल्याम् अद्यारभ्य एकं बृहत् परिवर्तनं प्रवृत्तं सञ्जातम्। अस्याः नूतन व्यवस्थायाः अन्तर्गतं उत्तराखण्ड मदरसा शिक्षा परिषद् पूर्णतया निष्क्रियो भविष्यति। सहैव राज्यस्य सर्वाः अल्पसंख्यक शैक्षणिक संस्थाः एकेन विनूत्नेन तन्त्रेण सञ्चालिताः भविष्यन्ति। अद्य जुलाई मासस्य एकदिनांकतः उत्तराखण्ड मदरसा शिक्षा बोर्ड अधिनियमः 20/26 तथा उत्तराखण्ड सर्वकारीयेतर अरबी एवं फारसी मदरसा मान्यता नियमावली 20/19 इत्येतेः सर्वे निष्प्रभाविनः अभवन्। राज्य प्रशासनेन उत्तराखण्ड अल्पसंख्यक शैक्षणिक संस्था अधिनियमस्य अन्तर्गतम् एका नूतना व्यवस्था प्रवर्तिता। अस्य प्रत्यग्र तन्त्रस्य अन्तर्गतम् उत्तराखण्ड राज्य अल्पसंख्यक शिक्षा प्राधिकरणमेव शिक्षायै उत्तरदायी भविष्यति। इति वार्ताः।